इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी प्रधानमन्त्री नरेन्द्रमोदी ह्यः मध्यप्रदेशस्य ग्वालियर नगरे जनसभाम् एकां सम्बोधितवान् विकासकार्याणां च उद्घाटनं कृतवान् तेनोक्तं यत् कोऽपि सर्वकारः एकस्मिन्नेव वर्षे यावत् कार्यं करोति तावत् अस्माकं प्रशासनेन एकस्मिन्नेव दिने कृतम् प्रधानमन्त्री प्रोक्तवान् यत् इन्दौर उज्जैन नगरयोः नवाचार औद्योगिक प्रभागैः युवभ्यः सहस्राधिकाः वृत्त्यवसराः उद्घाटिताः भविष्यन्ति इतः पूर्वं प्रधानमन्त्रिणा राजस्थानस्य चित्तौड़गढ़े 7,000,000,000,000 रूप्यकाणां विभिन्नाः विकासात्मक परियोजनाः राष्ट्राय समर्पिताः शिलान्यासं च कृतम् कार्यक्रमं सम्बोधयन् असौ प्रावोचत् यत् निम्नक्षेत्राणां विकासः तस्य प्रशासनस्य प्राथमिकता वर्तते केन्द्रीय विज्ञान प्रौद्योगिकीय राज्यमन्त्रिणा डॉ जितेन्द्र सिंहः कथितवान् यत् अन्तरिक्षानुसन्धाने भारतं प्रतिदिनं संवर्धति सम्प्रति च अन्तरिक्षस्य कुलीनवर्गैः सह प्रतिस्पर्धामपि करोति ह्यः नवदिल्ल्याम् एकस्मिन् कार्यक्रमे भारतीय अन्तरिक्ष अनुसन्धान संघटनस्य वैज्ञानिकेभ्यः सम्मानं प्रददन् डॉ सिंहः समुदीरितवान् यत् इसरो इति सम्प्रति विश्वस्य अग्रगण्य अन्तरिक्ष संघटनेषु एको वर्तते असौ प्रावोचत् यत् अमेरिका रूस देशौ भारतं निम्नदृष्ट्या अवलोकयतः आस्तां सम्प्रति सहभागिताम् इच्छतः सभां सम्बोधयन् लोकसभाध्यक्षः ओम बिरलाः प्रोदीरितवान् यत् भारतं विज्ञान प्रौद्योगिकी क्षेत्रयोः नेतृत्वाय समर्पित जनानां संघटनानां च सहयोगस्य आवश्यकता वर्तते चिकित्सा क्षेत्रे उत वा शरीर विज्ञान क्षेत्रे अस्य वर्षस्य नोबेल पुरस्कारः संयुक्तरूपेण हंगरीनगरस्य अमेरिकीय प्राध्यापकाय कैटलीन कॉरिको इत्यस्मै अमेरिकायाश्च प्राध्यापकाय ड्रयू विज्मैन इत्यस्मै प्रदास्यते उभौ वैज्ञानिकौ एतादृशीं प्रौद्योगिकीं विकसितां कृतवन्तौ यया एमआरएनए इत्यस्मिन् आधारितानां कोविड सूच्यौषधानां निर्माणं भवितुं शक्यते उभौ वैज्ञानिकौ दीर्घकालादेव पेंसिल्वेनिया विश्वविद्यालये कार्यरतौ स्तः स्वीयानुसन्धानाय 21,000,000 वर्षे प्रतिष्ठितं लास्कर पुरस्कारं समेत्य अनेके पुरस्काराः अपि तौ स्वीकृतवन्तौ नोबेल पुरस्कार समितिः प्रख्यापितवती यत् आधुनिक समये मानव स्वास्थ्याय वैज्ञानिकयोः योगदानं महत्वपूर्णम् अस्ति केन्द्रीय सूक्ष्म लघु मध्यम उद्यम विभाग मन्त्री नारायण राणे ह्यः मुम्बय्यां खादी ग्रामोद्योगेन आयोजितस्य खादी महोत्सवस्य उद्घाटनं कृतवान् सभां सम्बोधयन् नारायण राणेः खादी ग्रामोद्योगेन विहितानां कार्याणां प्रशंसां सहैव साम्प्रतिकेषु वर्षेषु उल्लेखनीय वृद्धेरपि चर्चां कृतवान् अयं खादी महोत्सवः 31 दिनांकं यावत् प्रचलिष्यति एतस्मिन् उत्सवे न केवलं खादी उत्पादानां प्रदर्शनं भविष्यति अपितु दैशिक उत्पादानां प्रचाराय वोकल फॉर लोकल इत्यस्य प्रदर्शनी अपि भविष्यति भारतीय ऋतु विज्ञान विभागेन आगामी द्विदिवसयोः बिहार झारखण्ड उपहिमालय पश्चिमबंग सिक्किम उत्तर ओडिशा उत्तर छत्तीसगढ़ राज्येषु अतिवृष्टेः आशंका प्रख्यापिता विभागानुसारि दक्षिण पश्चिम झारखण्ड राज्ये छत्तीसगढ़ राज्ये च अल्पवृष्टिः भविष्यति मध्य महाराष्ट्रे राठावाड़ क्षेत्रे अपि मेघाच्छादित ध्वनिना सह अल्पवृष्टिः भविष्यति इति वार्ताः